ललिता सहस्रनाम 1000 नेम्स ऑफ श्री ललिताम्बा सुप्रीम गॉडेस ललिताम्बा इट फॉर्म्स पार्ट ऑफ ब्रह्मांड पुराण एज अ मैटर ऑफ फैक्ट इट कंसिस्ट्स ऑफ थ्री पार्ट्स द फर्स्ट पार्ट वी मे कॉल इट इंट्रोडक्शन that presents a dialogue between the sage Agastya and Lord Hayagriva, an incarnation of Narayana. Agastya asks Hayagriva to tell him why the latter has not chanted the Dalita Sahasranama to him. Of course, the various aspects of the episode dealing with Supreme Goddess have been mentioned in Brahmanda Purana already. So, Agastya wants to know that there might have been some special reason behind it, why this Dalita Sahasranama was not presented to him. He doubts his competence also, that is there anything which does not qualify him to listen to this 1000 names of Sri Dalitamba, to which Lord Hayagriva informs him that there is nothing against him. But this Dalita Sahasranama is a sacred Sahasranama, and there is a need to maintain the secrecy of this Sahasranama. So because Agastya is now asking this specifically to chant that Sahasranama, and he is fully qualified to listen to it, so Hayagriva is chanting the Dalita Sahasranama. So the introductory part of this Dalita Sahasranama begins like this. The first one is prayer. Om Tripuram Kulanidimide Runashriyam Kamaraja Vidhangim Trigunair Devair Ninutam Ekantam Bindugam Maharambham. Agastya uvacha Ashwanana Mahabuddhe Sarvashastra Visharada Kathitam Dalita Devyas Charitam Paramadbhutam Purvam Pradurbhavo Matus Tata Pattabhishechanam Bhandasuravadhashyaiva Vistarenatvayodita Varnitam Shripuram Chapi Mahavibhava Vistaram Srimat Panchadashaksharya Mahima Varnitastatham Shodhanyasadayonyasa Nyasakhande samiritah antaryaga kramaschaiva bahiryaga kramastatha mahayaga kramaschaiva puja khande prakirtita purascharana khande tu japalakshanamiritam Homa khande tvaya prukto Homa dravya vidikrama Chakrarajasya Vidyaya Sri Devya Deshikatmanohum Rahasya Khande Tadatmyam Parasparamudiritam Stotra Khande Bahuvidha Stutaya Parikirtitah Mantrini Dandini Devyo Prokte Nama Sahasrake Natu Sri Lalita Divya Proktam Nama Sahasrakam Tatrame संशयो जातो हयग्रीवदयानिधे किं वा त्वया विस्मृतं तद् ज्ञात्वा वा समुपेक्षितम् मम वा योग्यता नास्ति श्रोतुं नाम सहस्रकम् किमर्थं भवता नोक्तं तत्र मे कारणं वद। सूत उवाच इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना प्रदिष्टो वचनं प्राह तापसं कुम्भसंभवम् लोपामुद्रापतेगस्त्य सावधानमनाश्रिणु नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते रहस्यमिति मत्वाहं नोक्तवांस्तेन चान्यथा पुनश्च पृच्छसे भक्त्या तस्मात् तत्ते वदाम्यहम्। ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिक भवता न प्रदेयं स्यात् अभक्ताय कदाचन न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने उपासकाय शुद्धाय देयं नाम सहस्रकम् यानि नाम सहस्राणि सद्य सिद्धिप्रदानि वै तन्त्रेषु दलिता देव्यास्तेषु मुख्यमिदं मुने श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा पुराणां श्रीपुरमिव शक्तीनां ललिता यथा श्रीविद्योपासकानां च यथा देवो वरशिव तथा नाम सहस्रेषु वरमेतत्प्रकीर्तितम् यथास्य पठनाद् देवी प्रीयते ललिताम्बिका अन्यनाम सहस्रस्य पाठान्न प्रीयते तथा श्रीमातु प्रीतये तस्मात् अनिशङ्कीर्तयेदिदम् बिल्वपत्रैश्चक्रराजे योर्चये ललिताम्बिकाम् पद्मैर्वा तुलसीपत्रै एभिः नाम सहस्रकै सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् जपान्ते कीर्तये नित्यम् इदं नाम सहस्रकम् जपपूजाद्यशक्तोऽपि पठेन्नाम सहस्रकम् साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात् उपासने स्तुतीरन्या पठेदभ्युदयो हि सः। इदं नाम सहस्रं तु कीर्तयेन्नित्यकर्मवत् चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् भक्तस्य कृत्यमेतावत् अन्यदभ्युदयं विदु भक्तस्यावश्यकमिदं नाम सहस्रकीर्तनम् तत्र हेतुं प्रवक्ष्यामि शृणुत्वं कुम्भसंभव पुरा श्रीदलिता देवी भक्तानां हितकाम्यया वाग्देवीर्वसिनी मुख्या समाहूयेदमब्रवीत् वाग्देवतावसिन्याद्या शृणुध्वं वचनं मम भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतय मद्भक्तानां वाग्विभूति प्रदाने विनियोजिताः मच्चक्रस्य रहस्यज्ञा मम नाम परायणा मम स्तोत्रविधानाय तस्मादाज्ञापयामिव। कुरुद्वमंकितं स्तोत्रं मम नाम सहस्रकै येन भक्तै स्तुतायामि सद्य प्रीति परा भवेत्। हयग्रीव उवाच इत्याज्ञप्ता वचो देव्यः श्रीदेव्या ललिताम्बया रहस्यैर्नामभिर्दिव्यैश्चक्रु स्तोत्रमनुत्तमम्। रहस्यनामसाहस्रम् इति तद्विश्रुतं परम् ततः कदाचित् सदसि स्थित्वा सिंहासनेऽम्बिकाम् स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव सेवार्थमागतास्तत्र ब्रह्माणि ब्रह्मकोटयः लक्ष्मीनारायणानां च कोटयः समुपागता गौरीकोटिसमेतानां रुद्राणामपि कोटय मन्त्रिणी दण्डिनी मुख्या सेवार्थं या समागता शक्तयो विविधाकारास्तासां सङ्ख्या न विद्यते। दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः तत्र श्रीललिता देवी सर्वेषां दर्शनं ददौ। तेषु दृष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् तत्र श्रीललिता देवी कटाक्षाक्षेपनोदिताः। उत्थाय वशिनी मुख्या बद्धाञ्जलिपुटास्तदा अस्तु वन्नाम साहस्रैः स्वकृतैर्ललिताम्बिकाम्। श्रुत्वास्तवं प्रसन्नाभूत् ललिता परमेश्वरी सर्वे ते विस्मयं जग्मुर्ये तत्र सदसि स्थिताः। ततः प्रोवाच ललिता सदस्यान् देवतागणान् ममाज्ञयैव वाग्देव्य चक्रुस्तोत्रमनुत्तमम्। अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये। प्रवर्तयध्वं भक्तेषु मम नाम सहस्रकम् इदं नाम सहस्रं मे यो भक्तः पठते सकृत्। मम प्रियतमो गेयः तस्मै कामान् ददाम्यहम् श्रीचक्रे मां समभ्यर्थ्य जप्त्वा पञ्चदशाक्षरीं पश्चान्नाम सहस्रं मे कीर्तयेन्मम तुष्टये। मामर्चयतु वा मा वा विद्यां जपतु वा न वा कीर्तयेन्नाम साहस्रम् इदं मत्प्रीतये सदा। मत्प्रीत्या सकलान् कामान् लभते नात्र संशय तस्मान्नाम सहस्रं मे कीर्तयध्वं सदादरात्। हयग्रीव उवाच इति श्रीललितेशानि शास्ति देवान् सहानुगान् तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः शक्तयो मन्त्रिणी मुख्या इदं नाम सहस्रकम् पठन्ति भक्त्या सततं ललिता परितुष्टये। तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने आवश्यकत्वे हेतुत्वे मया प्रोक्तो मुनीश्वर। इदानीं नाम साहस्रं वक्ष्यामि श्रद्धया शृणु। इदानीं नाम साहस्रं वक्ष्यामि श्रद्धया शृणु। ॐ